अमर कोशे दिक्करिण्यः याः सन्ति तासां नामानन्तरं वक्तव्यं क्लीबाव्ययं त्वपदिशं दिशोर्मध्ये विदिक् स्त्रियाम् इति श्लोकपादः. विदिक् या अस्ति तस्याः नामानि क्लीब अव्ययं तु अपदिशं दिशोर्मध्ये विदिक् स्त्रियां दिशोर्मध्यम् अपदिशं दिशोः मध्यभागः यः वर्तते तस्य नाम अपदिशं तत् क्लीबम् अव्ययं च इति अन्यत् दिशोर्मध्ये विदिक् स्त्रियाम् एवमेव विदिक् नाम तदपि दिशोः मध्यभाग एव विदिक् नाम दिग्भ्यां विगता विदिक् शकारान्तस्त्रीलिङ्गशब्दः नाम यत्र दिशः न भवन्ति तदेव विदिक् इति. अन्यः अर्थः विशिष्टा दिक् विदिक् विशिष्टा दिक् इति आग्नेयम् इत्यादि याः विदिशः सन्ति तासां नामानि आग्नेयं नैरृतिः एवं वायव्यम् ईशान्यम् एवं चतस्रः विदिशः अनन्तरम् अभ्यन्तरं त्वन्तराळं चक्रवालं तु मण्डलम् अभ्यन्तरं त्वन्तराळम् अभ्यन्त अन्तराळशब्दौ अभ्यन्तरम् एवम् अन्तराळशब्दौ उभावपि अष्टदिङ् मध्यवाचकौ इति. अभ्यन्तरं नाम अन्तरं नाम अवकाशम् अभिगतम् इत्यभ्यन्तरं नाम अत्र अवकाशः अस्ति इति. यथा आकाशस्य अर्थः अत्रापि अयमेव अर्थः अभ्यन्तरं नाम अत्र अवकाशः अभिगतः इति. अत्र दिशां मध्ये अवकाशः अस्ति यथा आकाशे अस्ति तथैव दिशां मध्ये अपि अवकाशः अस्ति अतः अभ्यन्तरमिति एतासां नाम. अन्तराळम् अन्तरम् अवकाशं लाति ददाति इति अन्तराळं ला दाने इत्यस्माद् धातोः इदं पदं निष्पन्नम् अत्रापि स एव अर्थः अभ्यन्तरं त्वन्तराळं नाम उभयोः अर्थसामान्यं यत् अवकाशः अस्ति इति. चक्रवालं तु मण्डलं चक्रवालमण्डलशब्दौ मण्डलाकारदिक्समूहनामानि इति नाम मण्डलाकारवत् यद्दिक्समूहं वर्तते दिक्समूहं यदि मण्डलाकाररूपेण वर्तते तस्य नामानि चक्रवालं तु मण्डलम् इति. चक्रस्यैव वालः वालः नाम संवरणम् अस्य अस्ति इति चक्रवालं वलसंवरणे इत्यस्माद्धातोः इदं पदं निष्पन्नं चक्रवालं तु मण्डलं मण्डलं नाम मण्डयति अलङ्करोति इति मण्डलं मणिभूषायाम् इत्यस्माद्धातोः इदं पदं निष्पन्नं चक्रवालम् अथवा मण्डलं नाम दिक्समूहः इत्येव अर्थः. अनन्तरं मेघस्य नामानि अभ्रं मेघो वारिवाहः स्तनयित्नुर्वलाहकः धाराधरो जलधरः तडित्वान् वारिदोम्बुभृत् इति. अनन्तरश्लोकः अभ्रम् अपः बिभर्तीत्यभ्रं भ्रुविङ्भरणे इत्यस्माद्धातोः इदं पदं निष्पन्नं मेघस्य नामानि मेघः अपः बिभर्ति अतः अभ्रम् इति उच्यते. अन्यः अर्थः न भ्रंशति आपः अस्मादित्यभ्रं मेघात् अपभ्रंशः अपभ्रंशः नाम अपां भ्रंशः न भवति अत एव अभ्रम् इति उच्यते. भ्रंशगतौ इत्यस्माद्धातोः इदं पदं निष्पन्नं अनन्तरं नाम वृष्टेः अनन्तरं पुनः मेघस्य तत्र मेघनिर्माणं भवति अतः अभ्रम् इति. अन्यः अर्थः अपि अस्ति यत् अपः रातीत्यभ्रं रादाने इत्यस्माद्धातोः इदं पदं निष्पन्नम् अपः प्रददाति अतः अभ्रम् इति.